Content number 17, Arunachala Pancharatna Vartikam, Sanskrit, written in Telugu script by Bhagavan. A Vartikam explains the meaning of that which is said, that which is left unsaid on the concerned topic, or that which is insufficiently said. K. Lakshmana Sharma came to Bhagavan in 1927. Though his mother tongue was Tamil, Bhagavan taught him the classical Tamil grammar and the rules of prosody. All this tutoring was to make him assimilate the significance of Ulladinarpadu. Sharma, like a sincere and perfect disciple, learnt all this, and as he was already well versed in Sanskrit, rendered them into Sanskrit verses. Bhagavan would check them thoroughly, make necessary alterations, and induce Sharma to rewrite until Bhagavan became satisfied. The Vartikam of Sanskrit, copied by Bhagavan in Telugu script, is presented in Swarna Hastakshari from page 141 onwards.
Karuna Purna Sudhabdhe Kavalita Ghana Vishwarupa Kiranavalya Arunachala Paramatman Aruno Bhava Chitta Kanja Suvikasaya Tvai Arunachala Sarvam Bhutva Sthitva Pralina Meta Chitram Vidyahamityatmataya Vidyasi Bhoste Vadanti Hridayam Nama Ahamiti Kuta Ayati Tyanvishyanta Pravishtayatyamaladhiya Avagamyasvam rupam chamyatyarunachala tvainadivabhau Yaktva vishayam bahyam ruddha pranena ruddha manasantastva Yayan pasyati yogi Thiriti marunachala Tvai mahiyante Tvai arpita manasatvam pasyan Sarvam tava krititaya satatam Bhajate ananya pritya sajayatyarunachala tvai sukhe magnaha Srimat Ramana Maharshetarishana marunachalasya devakira Chakamarya Gitaura Nam Tridam Aupanishadam Hi Ratnam Tridam Aupanishadam Hi Ratnam Tridam Aupanishadam Hi
Sri Arunachala Pancharatna Vartikam Mangalam Sachin Matra Swabhavaya Nitya Muktaya Shambhave Ramanayatmanathaya நமோ பகவதி சதா. கிரந்தாவதரணம். தேனாருணாச்சலாக்யஸ்ய ஸ்வஸ்வரூபஸ்ய பஞ்சபிஹ ஸ்லோகைஹ் க்ருதானுதிஸ்தஸ்யாஹ க்ரியதே லகுவார்த்திகம். மாண்டுக்யோதிதமத்வைதம் துர்யாக்யம் நிஷ்ப்ரபஞ்சகம் ஸஸாதனம் ஸ்துதாவஸ்யாம் ஆத்மதத்வம் ப்ரபஞ்சயதே. ப்ராமாண்யம் யுஜ்யதே ஹ்யஸ்ய யதோ வக்யத்ர சத்குருஹ நித்யானுபூதமாத்மீயம் தத்வம் சிவமநாமயம். வேதேன குருவாக்யானாம் ப்ராமாண்யம் மன்யதாம் ஜனஹ மன்யாமஹேது வேதானாம் ப்ராமாண்யம் குருவாக்யதஹ. ஸ்வஸ்வரூபே துரியாக்யே ஸ்திதோ யஸ் ஸ பவேத் குருஹ உபதேசஸ்ததீயோய ஸாஸ்யாதுபநிஷத்பரா. விஹாய ப்ராயசோ வாதான் ப்ராமாண்யாத்வசசாம் குரோஹ சித்தாந்தாயேவ சம்க்ருஹ்ய தீயந்தே ஹ்யத்ர வார்த்திகே. பிரதம ஸ்லோக அர்த்தஹ. ஹ்ருதம் போஜ விகாஷாய ப்ரதமே பார்த்யதே சுபா தத்க்ருபா ஸ்வீய பக்தானாம் தத்ஸ்வரூபத்வ சித்தயே அத்ரைவ நிஷ்ப்ரபஞ்சத்வம் திஷ்யதே ச பராத்மனஹ. அஹமித்ய கில ஸ்யாந்தர்பானம் யத் பரமாத்மனஹ கருணேத்யுச்யதே சைவ நாத்வைதே விக்ரியாயதஹ. கருணாயா ஸ்வரூபத்வம் இஷ்டம் ந குணதா விபோஹ உச்யதே நிர்குணத்வம் ஹி வேதாந்தைஹ பரமாத்மனஹ. தயா க்ருஹீதா யே பக்தாஹ ப்ரேமிணோ வா விசாரிணஹ ஸ்வரூபானுபவஸ்தேஷாம் த்ருவோ ஹ்யஜ்ஞானநாசதஹ. நிஷ்ப்ரபஞ்சகமத்வைதம் துர்யம் சத்யமிதி ஸ்புடம் ஜகத்கபலநஸ்யோக்த்யா பூர்வார்த்தே குருணோச்யதே. அதிஷ்டானதயா தஸ்ய விஸ்வஸ்யாரோபி தத்வதஹ சத்யத்வமஸ்தி தஸ்யைவ நது விஸ்வஸ்ய கர்ஹிசித். குருதே ஹ்யஸ தேவாஸத் கருணா பரமாத்மனஹ நான்யத் கிஞ்சன கர்த்தவ்யம் சத்ய ஆத்மா ஸ ஏவ ஹி சம்வித் பானுரசாவாத்மா யத் பாஸா மாயிகம் ஜகத் நீயதே நாசமத்யந்தம் தமோ பாஸா யதாரவேஹ அசதேவ தமோ யத்வத் சத்யவத் க்ருஹ்யதே புதைஹ அசத்யைவ ததா மாயா சகார்யா சத்யவன்மதா. யதா சத்வத்தமோ பாஸா கபலீக்ரியதே ரவேஹ சகார்யா ச ததா மாயா கபலீக்ரியதே சிதா. ஸ ஏவ சிஷ்யதே துல்யே சிதானந்தோ த்விதீயகஹ ந ஜீவோ ந ஜகத் கிஞ்சித் தத்வயம் ச மிருஷா கில. த்விதீய ஸ்லோகார்த்தஹ. பஹவஹ ப்ரதிபத்யந்தே மன்வானா சதிதம் ஜகத் ஆத்மநாச பதம் கேசித் இதம் மத்வா ச பிப்யதி. சங்காத்வய நிராசாய த்விதீய ஸ்லோக ஈரிதஹ. தடஸ்த லக்ஷணம் சாத்ர திஷ்யதே பரமாத்மனஹ ஸ்வரூப லக்ஷணம் சாபி சுத்தம் பக்தி விவருத்தயே. ஸ்வத சத்யம் ஜகன்மத்வா தஸ்யாதிஷ்டானமவ்யயம் ந பஸ்யத்ய விவேகீதி தத்தத்வமுபதிஷ்யதே. ஜீவேஷௌ விஷயாச்சேதி త్రితయం జగదాఖ్యకం ఆరోపితమిదం సర్వం అధిష్టానే చిదాత్మని స్వరూపం జగత సత్యం సచ్చిదాత్మైవ కేవలః అతోన్వేషేణ లబ్ధవ్యో విహాయేదం స ఏవ హి దృశ్యతే జగదిత్యేతత్ తత్సత్తాం నైవ సాధయేత్ అధిష్టానం కిమప్యస్తీత్ ఏతదేవ హి సాధితం ప్రతీయతే యథా యద్యత్ తత్తదేత్య ప్రమాణకం వైజ్ఞానిక జనైశ్చాపి స్పష్టమేతన్నిరూపితం బహిర్ముఖతయా తేతు భేదజ్ఞాన పరాయణాః న స్వం వేదితుమిచ్ఛంతి జ్ఞానం తేషామతో మృష సాక్షాత్కృతమధిష్టానం జగతో యేన బోధతః ప్రమాణీకృత్య తద్వాక్యం తథా నిష్టాం లభేమహి అధిష్టాన సదద్వైతం నిర్విశేషం నిరంశకం జగద్రూపతయా భాతి మనోవ్యాపారమాత్రతః మన ఏవ స్వయం మాయా యాన్యథా కురుతే పరం జ్ఞాయతాం తదిదం స్పష్టం సుప్తౌ జగదభానతః ఉదేతి వర్తతే తస్మిన్ లేయతే చాఖిలం యతః స ఏవాత్మా తతః సర్వం జీవేశౌ విషయాపి మాయా కార్యమిదం యస్మాత్ కేవలోసావవిక్రియః నానేన బాధ్యతే కించిత్ పటశ్చిత్రాగ్నినా యథా తదా భాసమయం చేదం స ఏవ పరమార్థతః యదేవాద్యం తయోరేతత్ మధ్యే చేదం తదేవ హి విశ్వం వివేక దృష్ట్యైవం స్వాత్మని ప్రవిలాపయేత్ ప్రవిలాపన దృష్ట్యా హి స్వాన్వేషణ క్షమం మనః స్వాన్వేషణస్య చాత్రైవ ప్రకార ఉపదిశ్యతే తేన స్వరూపేవ స్థానం జగద్భ్రమ వినాశతః తటస్థలక్షణం దిష్టం ఏవం తస్య పరాత్మనః స్వరూపలక్షణం త్వత్ర సూచితం చోపలక్ష్యతే స్వరూపం తత్స్ఫుటీకుర్వన్ శివస్య పరమాత్మనః తస్యైవాత్మత్వమస్మాకం దర్శయత్యతిశోభనం ఆత్మత్వేనాఖిలస్యాంతః అహమిత్యనిశం స్వయం భాత్యసౌ నాన్య ఆత్మాస్తి స్వరూపం తదిదం విభోః నృత్యసీతి పదేనాత్ర దిష్టానందస్వరూపత ఆత్మభూతస్య తుర్యస్య తదసంసారితాత్మనః స్వయైవ మాయయా దేవో విమోహితైవ స్వయం భ్రమతీవాత్ర సంసారే మాయాసౌనతు విద్యతే అర్థాత్వ్యావర్తనం చాపి దేహాదీనామనాత్మనాం కృతమేవేత్యతస్తేషు జహ్యాదాత్మత్వభావనాం సర్వే వయం స ఏవ స్మో న దేహానాపి దేహినః నాజ్ఞానం న చ సంసార ఇత్యేష పరమార్థత మనః కల్పయతే దేహాన్ జీవాంశ్చ విషయానహో జాగ్రత్యపి యథా స్వప్నే మాయైషా మన ఏవ హి శుద్ధ చిద్రూప ఆత్మైవ సత్యో నాన్యస్తతః శివః ఏష వేదాంత సిద్ధాంత ఉక్త స్వేయానుభూతితః ప్రేష్ఠ ఆత్మైవ సర్వేషాం తదర్థమితర ప్రియం అత ఆనంద రూపత్వం ఆత్మనో గమ్యతే స్ఫుటం తదానందకణా ఏవ ह्यानन्दालौकिका स्मृता आत्मलाभसमो नास्ति यत एवोच्यते बुधैः बहिर्मुखत्वहानाय दिश्यते हृदितस्थितिः अन्तर्मुखतया ह्येव साधने सम्प्रवर्तनम् परमार्थतया त्वेष परमो हृदयम् स्वयम् सर्वाधारस्य सत्यस्य निद्यैवाधारकल्पना। तृतीय श्लोकार्थः। ज्ञात्वैवमात्मलाभाय यतमानस्य सिद्धये ऋजुमार्गस्तृतीयेन विस्पष्टमुपदिश्यते आभासमात्रो जीवोऽयम् चिज्जडग्रन्थिरूपकः तच्चिदंश निदानम् तु भवत्यात्मा परस्वयम् हित्वा जडांशम् देहादि शिष्ठाम् चैतन्यरूपिणीम् शुद्धाहन्ताम् समादाय तन्मूलम् स्वङ्गवेशयेत् निमज्जेत् सलिले लब्धुम् मग्नम् वस्तु यथा तथा अहम् तामूलमन्विष्यन् निमज्जेत् साधको हृदि। स्वामिनो गन्धमादाय यथा स्वातङ्गवेशयेत् शुद्धाहन्ताम् तथादाय धीस्वमूलम् गवेशयेत् गवेषणे स्थिरीभूतम् मनो विशति हृद्गुहाम् तदा भायात् स्वभासात्मा श्याम्येदपि मनोम् ततः मनोनाशादपार्धक्यम् स्वतः सिद्धम् प्रकाशते मनः कृतो हि भेदोऽयम् द्वयोद्ब्रह्मात्मनोरिह इदमन्वेषणात् स्वस्य तत्त्वस्य हृदि मज्जनम् साधनम् परमम् मुक्तेः विचार इति चोच्यते अत्यन्तैक्यमनावृत्तिम् दर्शयिष्यन्नतो गुरुः नदीम् दृष्टान्तयत्यब्धिम् गत्वा तद्रूपताम् गताम् आत्मानुभूतिरेषैव मुक्तिरित्यभिधीयते सत्यास्थितिः परम् धाम कैवल्यम् सहजा स्थितिः स्वज्ञानमममृतत्वम् च मौनम् निर्भयतेत्युत स्थितिमेताम् पराम् तुर्याम् शंसन्ति बहुधा बुधाः आत्मा तु ज्ञेयताम् नैति तुर्ये ज्ञातापि नास्ति हि ज्ञानाज्ञानविनिर्मुक्त आत्मा ज्ञानस्वरूपकः ज्ञेयज्ञातृविहीनोऽसा वात्मा भवति केवलः अनात्मन्यात्मधीनाशः स्वात्मज्ञानमितीर्यते। नष्टम् यस्य विचारेण मनो हृदि निमज्जनात् आत्मैव स हि नात्मग्नो ब्रह्मैव ब्रह्मविन्नहि ब्रह्मब्रह्मज्ञयोर्भेदम् मन्वानः पारमार्थिकम् मिथ्याग्रहेण तेनैव प्रतिबध्येत साधकः। ज्ञानाद्विमुक्तिरित्युक्तेः ज्ञानमित्यर्थ एव हि न ज्ञानम् कारणम् मुक्तेः मुक्तिर्ज्ञानफलम् च न। आत्मनः सहजा मुक्तिः स्वरूपम् ज्ञानमात्मनः समुक्तिर्नित्यसिद्धैव स्वयमेव स्वकारणम्। व्यवहारिकदृष्ट्यात् ज्ञानान्मुक्तिरितीर्यते न वक्तुम् नापि मन्तुम् वा शक्यमेतत्परम् पदम् मौनव्याख्याननिर्देश्यम् वेद्यम् च स्वानुभूतितः। न वक्ता न च मन्ता वा तत्र कश्चन शिष्यते अत एव पदम् तुर्यम् मौनमित्यभिधीयते। வாசோபி மனசா சாக்கம் நிவர்த்தம் தேயதோ த்வயாத் அனுபூயதமானந்தம் நபிபேதி குதஸ்சன யத்ராஸ்தி பேத விஜ்ஞானம் நாபீதி ஸ்தத்ர கர்ஹிசித் இதி ச ஸ்ரூயதே யஸ்மாத் துர்யமேவாபயம் பதம் ஸ்வஸ்வரூப பரிஜ்ஞானாத் கதம் ஐக்கியம் பராத்மனா இதி ப்ரஸ்னோ நிராதார ஐக்கியம் ஸ்வாபாவிகம் யதஹ அத்ரோக்தேன விசாரேண லப்யைஷா பரமாகதிஹி நான்யதா லப்யதே சேயம் இதி வேதாந்த நிர்ணயஹ இஹ திஷ்டஸ் ஸ ஏவார்த்தோ நதீ த்ருஷ்டாந்த யோஜனாத் அந்யத்ரானேகதாசாபி ஸ்பஷ்டம் பகவதா சதாம் நோபாசனேன யோகேன புண்யைர்வாபி ச கர்மபிஹி லப்யேதேதம் பதம் துர்யம் இத்யேவம் ச ப்ரதர்ஷிதம் மித்யேயம் ஜீவதா யாவத் நலுப்யேத விசாரணாத் தாவத் சம்சார நிர்மோக்ஷோ நபவேத் கில தேஹினாம் ஜீவத்வமாதிமோ தர்ம கர்த்ருத்வாத்யாஸ்ததாஶ்ரயாஹ ஜீவதாரோபிதா பூர்வம் கர்த்ருத்வாத்யாஸ்ததஃ பரம் ஜீவத்வநாசோ சர்வேஷாம் நாசோதஃ ஸஹஜாஸ்திதிஹி சர்வதர்ம பரித்யாகோ யோகீ தாசு விதீயதே சகர்த்ருத்வாதிகஹானம் ஹி ஜீவத்வத்யாக பூர்வகம் சர்வதர்ம பரித்யாகோ ஜீவத்வத்யாக ஏவஹி அத்யாகே ஜீவதாயாஸ்து த்யக்தோ தர்மோ ந கஷ்சன இத்யோபநிஷதம் ஸ்வாஸ்த்யம் பரமம் பதமவ்யயம் அத்ரோபதிஷ்டம் த்ரஷ்டவ்யம் அத்வைதம் துர்யநாமகம் ருஜுமார்கமிமம் ஹித்வா சரம் த்யன்யபதாதுயே காலேன பரமம் தாம யாந்தி தே ஹ்ருன்னிமஜ்ஜனாத் சதுர்த்த ஸ்லோகார்த்தஹ சிஷ்யதே யதமானோ த்வௌ யோகீ ப்ரேமீ பராத்மனி சதுர்த்தே யோகினம் வக்தி ப்ரேமிணம் பஞ்சமே குருஹ தத்ர யோகீ ஹடாத் த்ருத்வா ப்ராணாயாமேன மானஸம் சிஜ்யோதிர்வீக்ஷணம் லப்த்வா ததானீம் மோததே ப்ருஷம் மனோரோதோ ஹடாத் சித்தோ நஸ்திரோ பவிதா க்வசித் லீனமேவ மனஸ்திஷ்டேத் சவாசனமதோதியாத் மனோ நாசேன முக்திர்ஹி நலயேன கதாச்சன லீனம் ஹி புனராயாதி நஷ்டம் நைவோதியாத் புனஹ அநாஷான் மனசோ யோகி ஜீவத்வம் ந ஜஹாதிஹி ஸ்புடீகர்த்துமிமம் பேதம் மனசோ லயநாசயோஹ குரோர்வக்தி புராவ்ருத்தாம் கதாம் கர்ஸ்யாபி யோகினஹ சமாதேர்வ்யுத்திதோ யோகி விபாசார்த்தித மானசஹ சிஷ்யமாதிஷ்ய தீர்த்தாய சமாதிம் ப்ராவிஷத் புனஹ யயுத்சதானி வர்ஷாணாம் வியுத்தித்தோ பூத்ததஃ பரம் ஜலாத பிரேசிதம் சிஷ்யம் வேகே நாதஸ்மரம் ஸ்ததா உவாச்சோச்சைஶ்ச போஸ்தீர்த்தம் கிமானீதம் த்வயேப்யசௌ பிபாஸா வாஸனா யுக்தம் மனோலீனம் ஹ்யபூச்சிரம் உதியாய ச வேகேன சமாதேர்வ்யுத்திதஸ்ய ஹி அநாசான் மனசோ ஹ்யேவம் வேகேன ஸ்மிருதிருத்கதா மஹிம் நிரமதே யோகி न स्वरूपं प्रपद्यते इत्युक्त्या योगिनो भोगो दिश्यते न तु मोक्षणम् अल्पमप्यंतरं कृत्वा भयमेतीति च श्रुतेः नाभयं विन्दते योगी त्ययमर्थो निरूपितः विना विवेकमत्रोक्तं स्वशक्त्या च हठेन च यतमानो हि दिष्टोत्र न तु सर्वोऽपि योगगः यावन्न सज्जते सोऽयं विचारेऽहं कृतिं त्यजन् परं वा शरणं याति तावन्नायं विमुच्यते पञ्चमश्लोकार्थः अतो विशिष्यते प्रेमी तदर्पितमनः सदा विस्मृत्य स्वं च तत्प्रेम्णा वीक्षते तन्मयं जगत् यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्याहं न प्रणश्यामि स च मे न प्रणश्यति योगिनामपि सर्वेषां मद्गतेनान्तरात्मना श्रद्धावान् भजते यो मां स मे युक्ततमो मतः इति गीतासु सन्दिष्टं पारम्यं प्रेमिणः किल पश्यंस्तं स सदा प्रेष्ठं तदानन्दे निमग्नधीः मुक्तप्रायो ह्यसौ कालान्मुक्तिमात्यन्ति किं व्रजेत् भक्तियोगेन लभ्येत परस्मिन् प्रेम शोभनम् उक्ता भागवते भक्तिर्नवधा श्रवणाधिका प्रपत्तिर्नवमा तत् परस्मै स्वनिवेदनम् दैवी ह्येषा गुणमयी मम माया दुरत्यया मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते इत्युपायः प्रपत्तिर्हि माया मोक्षाय दिश्यते मायया विषयेष्वेव प्रीतिः सञ्जायते नृणाम् प्रपन्नो मायया मुक्तः परस्मिन् प्रेमवान् भवेत् अतः परस्मिन् कर्तव्या भक्तिः परमशोभना आत्मत्वेन पृथक्त्वेन कथञ्चित् परमं भजेत् भजनात् प्रेम्नि सञ्जाते पार्थक्यं स्रंसते चिरात् अभेदशिष्यते सत्य एवं भक्तः कृती भवेत् प्रेम वाञ्छयतीत्युक्त्या योगिभ्योऽसौ विशिष्यते अतो विचारे नोच्चेद्दीर् इच्छेत् प्रेम्णाप्तुमीश्वरम् स्तोत्र समुदायार्थः न हि ज्ञानेन सदृशं पवित्रमिह विद्यते इति पूर्वोक्तमेवार्थम् इह दर्शयति स्वयम् वृद्ध इत्युच्यते ज्ञानी प्रेमी बाल इतीर्यते अहंकारपरीतात्मा योगी प्रोक्तो युवेति च अत्र यौवनमेवाद्यं ततो बालत्ववृद्धते साहंकारत्वमेवादौ निरहंकारता परा योगाद्भक्तिस्ततः प्रेम ततो ज्ञानमिति क्रमः उत्तमो भवति ज्ञानी निकृष्टो योगतत्परः मध्यमो भवति प्रेमी तेषामेवं भिदा मता मोक्षकारणसामग्र्यां भक्तिरेव गरीयसे भक्तिप्रकारे सर्वस्मिन् विचारः परमोत्तमः विचारेणान्नतां याति परमस्य स्वयं हृदि విచారీ పరమో భక్తో జ్ఞాత్వైవం స్వం విచారయన్. విచారేణైవ సంపూర్ణం పరస్మై స్వనివేదనం. విచారేణాన్నతామేత్య నతతో భిద్యతే యతః. మంగళం. ఈశ్వరో గురురాత్మేతి మూర్తి భేద విభాగినే పరస్మై రమణాఖ్యాయ పంచరత్న కృతే నమః. ఇతి శ్రీ లక్ష్మణ శర్మణ విరచితం శ్రీ అరుణాచల పంచరత్న వార్తికం సంపూర్ణం.